चेति त्रयोदोषाः समासतः विकृता विकृता देहं घ्नान्ति ते वर्तयन्ति च वायुपित्तं कफश्चेति त्रयो दोषाः समासतः विकृता विकृता देहं घ्नान्ति ते वर्तयन्ति च वायुपित्तं कफश्चेति त्रयो दोषाः समासतः विकृता कफश्चेति त्रयो दोषाः समासतः विकृता विकृता देहं घ्नान्ति ते वर्तयन्ति च